अस्यां कक्षायां शीतुक इति सूत्रं पश्यामः। शीतुक इति सूत्रं विपदात्मकं सूत्रं अष्टमाध्यायस्य तृतीय अध्याये अस्ति। तत्र किम् अस्ति इत्युक्ते हेमपरे वा इति सूत्रात् वा इति अनुवर्तते, नश्च इति सूत्रात् नः इति अनुवर्तते, पदस्य इति अधिकारः अस्ति। कृपया अष्टाध्यायीं स्वीकुर्वन्तु। पदस्य इति अधिकारात् पदस्य इति स्वीक्रियते, तदा इदानीं सूत्रार्थः एवं सम्पद्यते, पदस्य नः, नः इति नश्च इति सूत्रात् नः इति आगतम्। पदस्य नः, नः इति षष्ठी अस्ति, पदस्य इति नः इत्यस्य विशेषणं भवति, एवं पदान्तस्य नकारस्य तदन्तविधिः भवति। एतादृश यदा पदस्य पदात् इति पदं यदि अन्यस्य पदस्य विशेषणत्वेन यदा आगच्छति तदा अस्माभिः किं क्रियते इत्युक्ते तदन्तविधिः इति अस्माभिः स्वीक्रियते। पदस्य नः इत्युक्ते पदान्तस्य नकारस्य, पदान्तस्य नकारस्य शी, शी इति सप्तमी विभक्तिः, शकारे परे, पदान्तस्य नकारस्य शकारे परे तुक् भवति। तुक् इति कित् अस्ति, तुक् इत्यत्र कित् अस्ति, आगमाः त्रयः इति अस्माभिः अधीतम्, कित् टित् मित्, तुक् इति कित् अस्ति, एवं तुगागमः अस्ति, तुक् इति आगमः, तुगागमः भवति। कदा भवति? पदान्तस्य नस्य शकारे परे तुग् भवति, तुगागमः भवति इति उक्तम्। इदानीं तुक् इत्यत्र कित् अस्ति, कित् यदि भवति तर्हि परिभाषा प्रवर्तते, परिभाषासूत्रं प्रवर्तते आद्यन्तौ टकितौ इति। एवम् आद्यन्तौ टकितौ इति परिभाषया किं किं भवति इत्युक्ते तुगागमः भवति। कुत्र भवति आद्यन्तौ टकितौ? यदि कित् अस्ति चेत् कुत्र भवितव्यम्? अन्ते, अन्तावयवस्सन् भवति आगमः, अन्तावयवस्सन् भवति। इदानीं पश्यामः, उदाहरणं पश्यामः। सन् शम्भुः इति अस्ति उदाहरणं, तत्र मूले स एव उदाहरणं दत्तं। सन् शम्भुः इति उदाहरणमस्ति। सन् शम्भुः इत्यत्र सन् शम्भुः नाम तत्र भगवान् शङ्करः शम्भुः सत्स्वरूपः इति अस्माभिः स्वीकर्तुं शक्यते अस्य अर्थः। सन् शम्भुः इत्यत्र किं भवति? इदानीं तुगागमः विकल्पः, पदान्तस्य नस्य शेपरे तुक् वा स्यात्, वा इत्युक्ते विकल्पेन एव भवति इति। इदानीं तुगागमः यदि भवति किं भवति इति पश्यामः, कथं प्रक्रिया इति। प्रक्रिया एवं भवति, सन् शम्भुः इत्यत्र सन् तु शम्भुः, तुक् इत्यत्र उक् तत्र ककारः इत् अस्ति, उकारः उपदेशे अजनुनासिक इत्यनेन इत् भवति, तस्य लोपः इति सोऽपि वर्णः गच्छति। सन् तु शम्भुः इति स्थितिः। इदानीं स्तोस्तु नास्तुः इति अस्माकं प्रसिद्धं सूत्रं विद्यते, व्यञ्जनसन्धौ आदौ एव पठितवन्तः वयं। स्तोस्तु नास्तुः इत्यनेन तकारस्य चकारः, तकारस्य चकारः सम्पन्नः। अत्र स्तोस्तु नास्तुः इति सूत्रं नकारस्यापि भवति, नकारस्य चकारे परे ण्यकारः भवति। सो सं शम्भुः इति स्तोस्तु नास्तुः इति द्विवारं प्रवृत्तिः। प्रथम यदा प्रथमवारं प्रवृत्तिः भवति तदा तु तकारस्य चकारः, यदा द्वितीयवारं प्रवृत्तिः तदा तु सन् इत्यत्र नकारस्य ण्यकारः। एवं सन् शम्भुः इति रूपं भवति. इदानीं षष्ठोटी इति सूत्रम् अस्माभिः अधीतम्. षष्ठोटी षष्ठोटी इति सूत्रम् अधीतम्. तत्र शः छः अटि अटि परे किं भवति? छत्वं भवति इति अस्माभिः अधीतं. छत्वविधायकं सूत्रं. छत्वं कदा भवति? शकारे परे भवति. अतः तत्र शम्भुः इत्यत्र शकारः यः अस्ति तस्य छकारः भवति षष्ठोटि इत्यनेन. षष्ठोटि इत्यनेन छकारः यदा भवति तदा तदनन्तरं झरो झरि सवर्णे, झरो झरि सवर्णे इति तदपि अस्माभिः अधीतं. झरो झरि सवर्णे इति सूत्रार्थं यः कोऽपि वक्तुं पारयति वा? झरो झरि सवर्णे इत्यत्र तत्र मूले अस्ति हल्सन्धिप्रकरणे प्रायः कुत्र आसीत् तस्मादित्युत्तरस्य उदस्तात्स्तम्भौ पूर्वस्य आदेपरस्य तस्मादित्युत्तरस्य हलः परस्य झरः आदेपरस्य इत्यस्मात् तदनन्तरम् अस्ति हलः परस्य झरः वा लोपः सवर्णे झरि. इदानीं इदानीं सवर्ण झर्वर्णः अस्ति हलः परस्य झरः हल् अस्ति ञकारः हलः परस्य झर् झर्वर्णः अस्ति झरः वा झर् तस्मात् परमपि झर्म तस्मात् परमपि झर्वर्णः अस्ति झरः झरि सवर्णे झरि एकस्य लोपः इति चकारस्य लोपः. एवं सञ्शम्भुः सञ्शम्भुः इति एकरूपसिद्धिः. इदानीम् एतत् अत्र मूले किम् अस्ति? उदाहरणचतुष्टयमस्ति किल सञ्शम्भुः सञ्शम्भुः इति चत्वारि रूपाणि दर्शितानि. तत् कथम् आगच्छति इति पश्यामः. प्रथमरूपम् अवगतं वा? तद् सुलभमस्ति. तुगागमः विकल्पः अस्ति. तुगागमः यदि भवति तदा तकारस्य स्थाने चकारः स्तोस्तु नास्तुः इत्यनेन, अनन्तरं नकारस्य स्थाने ञकारः, षकारस्य स्थाने चकारः, मध्ये यत् आगमः तुक् इति यः आगमः चकारत्वेन परिवर्तितः सः झरो झरि सवर्णे इत्यनेन लोपं प्राप्नोति. सञ्शम्भुः इति रूपं सिध्यति. इदानीं अत्र सन् तुक् इदानीं तुक् आगमः अस्ति. तुक् आगमः कस्य आगतम्? नकारस्य नस्य शेपरे तुग्वा स्यात्. नकारस्य तुगागमः तुक् इति तुक् इत्यत्र कित्त्वमस्ति. एवं कित्त्वात् अन्तावयव सन् भवति. न् अनन्तरं त् आगतम् तदेव कित्त्व कित्त्वमेव तस्य कारणम्. इदानीं तुक् इति यदि कित्त्वं नास्ति तर्हि कुत्र भवेत् इत्येव अस्माकं शङ्का भवति. कित्त्वात् अन्तावयवस्सन् भवति. कस्य अन्तावयवस्सन् भवति? सन् इत्यस्य अन्तावयवस्सन् भवति. कथं ज्ञायते? आद्यन्तौ टकितौ इति परिभाषासूत्रेण ज्ञायते. तद्विशेषतया अस्माभिः परिभाषां स्मृत्वा एव अस्माभिः करणीयम्. एवं तत्र विवरणमस्ति. सन् शम्भुः इत्यत्र सन् इत्यस्य सुप्तिगन्तं पदम् इत्यनेन पदसंज्ञा अस्ति. एवं पदस्य अन्ते एव भवति. पदान्तस्य नस्य इति पदसंज्ञा भवेत्, पदं भवेत् तदा एव शीतुक् इत्यस्य प्रवृत्तिः. पदान्तस्य नस्य किम् अस्ति? षकारे परे तुक् इति आगमः आगतः. कित्त्वात् अन्तावयव सन् षष्ठोटि अन्तावयव सन् स्तोस्तु नास्तुः इति स्तुत्वेन तकारस्य चकारः नकारस्य ञकारः आदेशे सति. तदनन्तरं శంభు స్థితౌ షష్ఠోటి ఇత్యనేన చకారస్య వికల్పేన చకారః ఆదేశః భూత్వా జరోదరి సవర్ణే ఇత్యనేన వికల్పేన చకారలోపే సతి సంచంభుః ఇతి ప్రయోగః జాయతే ఇతి అస్మాభిః పరీక్షాయాం ఏవం రీత్యా లేఖనీయం. వస్తుతః అస్మాభిః ఏతత్ చార్ట్ ఏదస్తి ఏకస్మిన్ స్లైడ్ మధ్యే ఏవ వయం జ్ఞాతుం శక్నుమః కిం జాతం ఇతి. ఇదానీం అస్మాభిః ప్రశ్నః కర్తవ్యః. యది లోపః న భవతి ఇత్యుక్తే ఝరోఝరి సవర్ణే ఇతి లోపః యది న భవతి తర్హి కిం భవతి ఇతి ప్రశ్నం పృచ్ఛామః. కృపయా భవత్యః భవంతశ్చ నోట్బుక్ మధ్య లిఖంతు సంచంభుః ఇతి ప్రథమం రూపం. యద్ ఏకం రూపం ఆగతం సంచంభుః ఇతి చవర్గ అంతిమాక్షరయుక్తం ప్రథమ రూపం తత్కృపయా లిఖంతు. ఇదానీం తస్య పూర్వస్థితిః ఝరోఝరి సవర్ణే ఇతి యది పూర్వ ఇతి లోపః యది న భవతి తదా కిం భవతి తద్రూపం లిఖంతు కృపయా. సంచంభుః ఇతి లిఖంతు. ఏవం లోపాభావే ఏకం రూపం ఆగతం సంచంభుః ఇతి ఏకం రూపం ఆగతం ఝరోఝరి సవర్ణే ఇతి రూపం ప్రథమ రూపం తు అస్తి ఏవ. లోపః యది అస్తి తదా ఏకం రూపం అస్తి లోపాభావే కిం రూపం. సర్వైః లిఖితం వా? హా. ఇదానీం తృతీయం రూపం పశ్యామః. తృతీయం రూపం ఇదానీ షష్ఠోటి ఇతి రూపం. షష్ఠోటి ఇతి రూపమేవ చకారః చత్వసంధిః వికల్పః. ఇదానీమేకం కార్యం కుర్మః. షష్ఠోటి ఇతి యది న ప్రవర్తతే తదా కిం రూపం భవతి ఇతి కృపయా లిఖంతు. శంభుః భవతి. లిఖితం వా సర్వైః? సర్వైః తృతీయం రూపం లిఖితం వా? అనంతరం అనంతరం సమీచీనం అస్తి వా న వా ఇది అనంతరం పశ్యామః. ఇదానీం తృతీయం రూపం లిఖితం. అస్తు చతుర్థం రూపం పశ్యామః. యది తుగాగమః ఏవ న భవతి శీతుకిది తుగాగమః వికల్పః అస్తి. యది తుగాగమః ఏవ న భవతి తదా కిం స్యాత్? నకారస్య కిం స్యాత్? కేవలం స్తుత్వం తద్రూపమపి లిఖంతు. సర్వైః లిఖితం వా? ఇదానీం పశ్యామః సమ్యగస్తి వా న వా ఇది. ఏవం చత్వారి రూపాణి లోపాభావ ప్రథమం సర్వస్య సూత్రస్య ప్రవృత్తి యదా భవతి సర్వేషాం సూత్రాణం ప్రవృత్తి యదా భవతి తదా కిం సంచంభుః. లోపాభావే సంచంభుః, చత్వాభావే సంశంభుః, తుగభావే కేవలం నకారస్య ణకారః సంచంభుః. ఇదానీం సర్వైః ఏతద్ అవగతం వా? ఇదానీం సిద్ధాంతకౌముద్యాం ఏతదేవ అస్య ఉదాహరణస్య చత్వారి రూపాణి స్మారయితుం. ఏతాదృశ ఉదాహరణానాం చత్వారి రూపాణి స్మారయితుం తత్ర ఏకా కారికా విద్యతే. సా కారికా ఏషా అస్తి న్యచౌ న్యచఛా న్యచఛా న్యషావితి చతుష్టయం రూపాణామిహ తుచ్ఛత్వ చలోపాభ్యాం వికల్పనాత్ ఇతి అస్తి. ఏతత్ ప్రాయః మూలే నాస్తి ఇతి మన్యే. परन्तु एतत् ज्ञातव्यम् अस्माभिः. चत्वारि रूपाणि तु दत्तं मूले, तत् तत्र स्मरणार्थम् एवं भवति. न्यचौ न्यचछा, इदानीम् एतत् कथम्, एतस्य अर्थः कः इति अस्माभिः ज्ञातुं शक्यते. स्वयं प्रथम इदानीं यत् नोट्बुक् मध्ये लिखितं तदेव पश्यन्तु. न्यचौ इति प्रथमरूपम्. न्यचौ इत्यत्र चवर्गपञ्चमाक्षरः चकारः, इत्युक्ते झरोझरि सवर्णे इति लोपः यदा प्रवर्तते सरूपम् आगच्छति. अनन्तरं झरोझरि सवर्णे इति लोपस्य अभावे न्यचछा, न्यचछा इति रूपम्. तदनन्तरं षच्छोटि इत्यत्र छत्वाभावे न्यचषा इति रूपम्. तदनन्तरं तुगभावे न्यषा इति रूपचतुष्टयम्. रूपाणामिह तुक् तुच्छत्व चलोपाभ्याम्, तुच्छत्व चलोपाभ्याम् वा चलोपानाम्, रूपाणामिह तुच्छत्व चलोपानाम् विकल्पनात्. एवं शीतुक् इत्यस्य पदान्तस्य नस्य शेपरे तुग्वा चत्वारि रूपाणि सम्भवन्ति. सम्यक् अवगतं वा? कारिकापि अवगता वा? यदि टेबल् इत्यादिकम् एतत् ज्ञायते चेत् कारिकापि ज्ञायते. इदानीम् अग्रिमसूत्रं नमो ह्रस्वात् अचि नमुन्नित्यम् इति अस्ति. नमो ह्रस्वात् अचि नमुन्नित्यम्. नमो ह्रस्वात् अचि नमुन्नित्यम्. अत्र पञ्चपदानि सन्ति. नमः ह्रस्वात् अचि नमुन्नित्यम्. नमुन्नित्यम् इत्यत्र अनुनासिकसन्धिः अस्ति. नमुट् नित्यम् इति छेदः. सूत्रे एव अनुनासिकसन्धिः अस्ति. नमः ह्रस्वादचि जष्टसन्धिः. ह्रस्वादचि नमुन्नित्यम्, नमुट् नित्यम् इति पदच्छेदः. इदानीं नमः इत्यत्र पञ्चमी विभक्तेः पञ्चमी विभक्ति एकवचनं. ह्रस्वात् तु ज्ञायते पञ्चमी एकवचनम्. अचि सप्तमी एकवचनम्. नमुट् इति प्रथमा एकवचनम्. नित्यम् इति तु अव्ययम् अस्ति. इदानीम् अत्र सूत्रार्थं प्रति अनन्तरं गच्छामः, किञ्चित् विश्लेषं कुर्मः. अत्र अष्टमाध्यायस्य तृतीयपादस्य सूत्रमेतत्. पदस्य इति अधिकारः अस्ति. पदस्य इति अधिक्रियते अत्र. ह्रस्वात् इत्यत्र पञ्चमी विभक्तिः अस्ति. ह्रस्वात् परस्य. नमः इत्यत्र नमः परस्य, नमः परस्य. अचि इति सप्तमी अस्ति. अत्र उभयनिर्देशे पञ्चमी निर्देशः बलीयान् इति स्वीकृत्य किं भवति? अचि इति सप्तमी षष्ट्या विपरिणम्यते, यथा पूर्वम् अस्माभिः कृतम्. यदा उभयनिर्देशे पञ्चमी निर्देशो बलीयान् इति यदा स्वीक्रियते, किं भवति? नमुट् अत्र प्रश्नः सम्भवति. नमुट् इति ह्रस्वस्य अचि, अचि इति ह्रस्वस्य, ह्रस्वस् अचि इत्यस्य अवयवः वा नमः इत्यस्य अवयवः वा इति प्रश्नः. तदा पञ्चमी उभयनिर्देशे पञ्चमी निर्देशो बलियानिति यदधीतम् अस्माभिः, तथैव अत्रापि पञ्चमी निर्देशः अस्ति, सप्तमी निर्देशः अस्ति. पञ्चमी निर्देशः एव स्वीकरणीयः. पञ्चमी निर्देशः यदा स्वीक्रियते, सप्तम्याः का गतिः इत्युक्ते षष्ट्या विपरिणम्यते. एवम् अचः, अचि इति अचः इति भवति. अचः 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 इत्युक्ते अत्र अवयवषष्टिः अस्ति अचः अवयवः भवति इति अवयवषष्टिः अस्ति नित्यं ङमुट् भवति ङमुट् इति प्रथमाविभक्तिः अस्ति अस्तु इदानीं सूत्रार्थम् एकवारं सम्यक् ज्ञातुं प्रयत्नं कुर्मः इदानीं ह्रस्वात् परो यो ङम् ह्रस्वस्वरः भवेत् ततः परं ङम् ङम् भवेत् ङम् इत्युक्ते ङम् इति प्रत्याहारः स्वीकर्तव्यः ङम् इति प्रत्याहारे के वर्णाः आगच्छन्ति ङम् इति प्रत्याहारे के वर्णाः आगच्छन्ति तदन्तं यत् पदम् तस्मात् परस्य अचः किं भवति ङमुट् भवति नित्यं ङमुट् भवति ङमुट् भवति इदानीं ङमुट् इत्युक्ते किम् ङमुट् इत्यत्र ङम् इति प्रत्याहारः ट् तद् एवं स्वीक्रियते ङमुट् इत्यत्र ङम् प्रत्याहारस्य टित् करणेन इदानीं ङमुट् इत्यत्र ङम् प्रत्याहारः अस्ति टित्करणमपि अस्ति टित्करणस्य इदानीं ङम् इति प्रत्याहारः अस्ति इदानीं प्रश्नः क्रियते किमर्थं प्रत्याहारः स्वीकृतः इत्युक्ते तत्र निर्देशः एवमस्ति ङुट् नुट् नुट् इति वक्तव्यमस्ति पाणिनेः सः किं कृतवान् ङुट् नुट् नुट् एते आगमाः भवन्ति ङमः क्रमेण इति वक्तुं सः किं कृतवान् ङमुट् इति स्वीकृतवान् ङमुट् ङमुट् इत्यत्र टित् अस्ति आगमाः त्रयः टित् कित् मित् अत्र टित् आगमः अस्ति एषः आगमः टित् अस्ति आद्यन्तौ टकितौ इत्यनेन टित् आगमः आद्यवयवः सन् भविष्यति इदानीं ङमः इति ङ इति त्रयः वर्णाः भवन्ति तत्र आगमाः अपि त्रयः सन्ति अस्मिन् सूत्रे आगमाः त्रयः सन्ति ङुट् नुट् नुट् इति त्रयः आगमाः एवं प्रथमस्य प्रथमं द्वितीयस्य द्वितीयं तृतीयस्य तृतीयम् इति यथासङ्ख्यमनुदेशसमानाम् इति सूत्रेण एतेषाम् आगमाः भवन्ति इदानीं सूत्रार्थं पश्यामः ह्रस्वात् ह्रस्वस्वरः भवेत् ततः परं ङम् भवेत् इत्युक्ते त्रयः वर्णेषु एकः भवेत् तदन्तं तत् पदे पदान्ते एव भवेत् तस्मात् परस्य अच् भवेत् अचः ङमुट् भवति ङमुट् टित् अस्ति टित् अचः तद् अचः इत्यत्र षष्टिः स्वीक्रियते अतः अचः अवयवस्य अचः अवयवः सन् भवति टित्वात् आद्यन्तौ टकितौ इत्यनेन आद्यवयवस्सन् भवति एवं यदि अच् अस्ति चेत् ततः पूर्वं भवति सम्यक् अवगतं वा पुनः वक्तव्यं वा अस्तु ह्रस्वस्वरः भवेत् एकं कार्यं कुर्मः उदाहरणं स्वीकुर्मः तत्र टेबल् अस्ति इति मन्ये हा प्रत्यङ्गात्मा इति अस्ति उदाहरणं स्वीकुर्मः प्रत्यङ्ग् इत्यत्र अकारः अच्वर्णः अस्ति ह्रस्वस्वरः अस्ति నమో హ్రస్వాత్ హ్రస్వ హ్రస్వస్వ హ్రస్వాత్ ఇత్యత్ర హ్రస్వస్వర అస్తి అకారః తతః పరం నకారః నం భవేత్ నం ఇత్యుక్ నం మధ్యే త్రయః వర్ణాః నం భవేత్ న న న తతః పరం యత్కిమపి అచ్ భవేత్ హ్రస్వో వా దీర్ఘో వా తద్న ఉక్తం అచి ఇతి ఉక్తం అచి ఇతి ఉక్తం పరంతు తద్ అచీతి ఇత్యస్య అచః అవయవస్య ఇతి వయం స్వీకుర్మః సప్తమ్యాః షష్ఠీ స్వీకుర్మః అచః అవయవస్య కిం భవతి నముట్ భవతి నముట్ ఇతి టిత్ అస్తి టిత్ ఇత్యుక్తే ఆగమః టిత్ ఇత్యుక్తే ఆగమః కుత్ర ఆగచ్చతి ఆగమః అచః ఆకారస్య పూర్వం వా పరే వా ఇతి ప్రశ్నః ఆగచ్చతి తదా ఉచ్యతే టిత్వాత్ ఆద్యవయవ సన్ భవతి ఏవం పూర్వమేవ భవతి ఏవం ఆకారాత్ పూర్వమేవ కిమ్ ఆగచ్చతి ఇదానీం ఆగమః అత్ర ఆగమః అస్తి కస్య ఆగమః అస్తి నుట్ ఆగమః అస్తి నకారస్య నుట్ ఆగమః నుట్ ఆగమే నకారః ఏవ తిష్టతి అన్య 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 అన్యో ద్వౌ వర్ణౌ లుప్తః భవతి ఏవం ముట్ ఆగమః అస్తి ము ఇతి అవశిష్యతే ఏవం ప్రత్యంగాత్మా ఇతి రూపసిద్ధిః భవతి ఇదానీం అవగతం వా అస్తు ఇదానీం పునః యది అవశ్యకం చేత్ సూత్రార్థం పశ్యామః హ్రస్వాత్ పరో యోగం తదంతం యత్ పదం తస్మాత్ పరస్య అచః నిత్యం నముట్ స్యాత్ ఇది సూత్రార్థః తదేవ అత్ర లిఖితమస్తి హ్రస్వస్వరాత్ పరః యః నం నం ఇత్యుక్తే ప్రత్యాహారస్థాః వర్ణాః త్రయః వర్ణాః తదంతం యత్ పదం తస్మాత్ పరస్య పదాత్ ఉత్తరస్య అచః నిత్యం నముట్ భవతి నముట్ ఇత్యత్ర నమ్ ఇది ప్రత్యాహారస్య గ్రహణం తదుక్తం పూర్వమయా తత్ర నుట్ 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 ఇది యథాసంఖ్యం అనుదేశ సమానం ఇత్యనేన నముట్ ఇత్యుక్తే త్రయః ఆగ అస్మిన్ సూత్రే త్రయః ఆగమాః ఇది స్వీకర్తవ్యః ఏమేవ సుగణ్ ఈశః సన్ అచ్యుతః ఇత్యత్రాపి ఏవమేవ భవతి ఇది జ్ఞాతుం శక్యతే. సుగణ్ ఈశః ఇత్యత్ర అత్ర పదాంతే అస్తి పదాంతాత్ పరస్య అచః ఈకారస్య ఇదానీం ఈకారః అస్తి నుట్ ఇది ఆగమః నుట్ తత్ర అత్ర సమ్యక్ న ఉట్టంకితం నుట్టితి ఆగమః సుగణ్ణీషః ఇది భవతి. తదనంతరం సన్నచ్యుతః ఇత్యత్ర నుట్ ఆగమః సన్నచ్యుతః ఇది భవతి. ఇదానీం అగ్రిమసూత్రం పశ్యామః సమస్సుటి సమో రుహు స్యాత్ సుటి ఇది మూలే అస్తి విధి సూత్రం అస్తి అష్టమాధ్యాయస్య సూత్రమేతత్. పదత్రయం సమసుటి ఇత్యత్ర పదద్వయం విద్యతే సమః సుటి ఇది సమః నామ సమ్ ఇతి ఉపసర్గస్య స్థానే ఇతి సమః సమః స్థానే సుటి పరే సుటి సుట్ ఇతి ఆగమః కదా ఆగచ్చతి కుత్ర ఆగచ్చతి ఇది పశ్యామః. యది సుడాగమః అస్తి చేత్ సమః పరే సుడాగమః అస్తి చేత్ రుహు భవతి రుహు ఇత్యస్య రు ఇతి అనునాసిక సహిత ఋ ఆదేశః భవతి సమోరుహు స్యాత్ సుటి ఇతి కదా కుత్ర ఆదేశః భవతి అలోంత్యస్య ఇతి అంతాదేశః భవతి. సమ్ ఇత్యత్ర సముదాయస్య సకారస్య మకారస్య आदेशः भवति वा समुदायस्यैव आदेशः वा कस्य आदेशः इति प्रश्ने कृते अस्माभिः उच्यते तत्र अलोन्त्यस्य अलोन्त्यस्य इति परिभाषा अस्ति अलोन्त्यस्य इति अन्तादेशः भवति इदानीं रू इत्यस्य उपदेशे अजर्नाशक इत्यनेन उकारस्य इति संज्ञा भवति तस्य लोपः इत्यनेन सापि लोपः भवति एकनिमिषम् अत्र अत्र इति अस्ति वा अनुनासिकस्य तत्र स्लैड् परिवर्तनीयम् एकनिमिषम् उदाहरणं स्वीकुर्मः संकर्ता इति अस्ति संकर्ता इत्यत्र संपरिभ्यां करोतौ भूषणे इति क्री धातोः सुडागमः अस्ति तत्तु एतत् प्रकरणसम्बन्धी नास्ति केवलं सुडागमः अस्ति इति वयं जानीमः सुडागमः संपरिभ्यां करोतौ भूषणे इति सूत्रात् आगतम् इति तद् अवगच्छामः सुटागमः अस्ति एवं संस्कर्ता इति सम् अस्ति इदानीं समसुटि इति सूत्रम् आगत्य किं करोति समोरुः स्यात् सुटि इदानीं सुटागमः अस्ति सम् उपसर्गः अस्ति किं करणीयम् अस्माभिः आलोन्त्यस्य इति परिभाषया मकारस्य अस्माभिः रुत्वं करणीयं रुत्वं नाम रेफः तत्र रुत्वं नाम रेफः रु इति भवति तत्र उकारः उपदेशे अजनुनासिक इत्यनेन लोपः भवति एवं सर् सकर्ता इति तिष्ठति तदनन्तरं किं भवति एतावत्पर्यन्तम् अवगतं वा सुलभमस्ति सर्स्कर्ता संकर्ता इति पूर्वं स्यात् संस्कर्ता इति स्यात् अनन्तरं सर्स्कर्ता इति अभवत् इदानीम् अत्रानुनासिकस्य पूर्वस्य वा इति एकं सूत्रं विद्यते अत्रानुनासिकः पूर्वस्य तु वा अत्रानुनासिकः पूर्वस्य तु वा अत्र इत्युक्ते अत्र अस्मिन् अत्र इति अहं न प्रयोगं करोमि सूत्रे यदत्र अस्ति तदेव अस्मिन् सूत्रे अत्र इति पदम् अव्ययमस्ति अनुनासिकः इति पदं प्रथमाविभक्ति एकवचनमस्ति पूर्वस्य तु वा एतत् सर्वं ज्ञायते अत्र इत्यनेन किं स्वीकरणीयं रुप्रकरणे इति स्वीकरणीयं रुप्रकरणं नाम किम् तत्र अष्टाध्याय्यां कृपया अष्टमाध्यायस्य तृतीयपादस्य प्रथमसूत्रम् अस्ति किम् अस्ति मतुवसोरुच्छन्दसि इति अस्ति मतुवसोरुच्छन्दसि इति अष्टमाध्यायस्य तृतीयपादस्य प्रथमसूत्रमस्ति तदारभ्य कानं रेडिते इति अस्ति वा कृपया तद् कानं रेडिते इति सूत्रम् अस्ति कानं रेडिते कानां रेडिते वा तदेव तद् अत्रापि टैपिङ्ग् कानां रेडिते आम् रेडितम् इति संज्ञा अस्ति अस्तु
अस्तु एतत् किमपि
मतुवसो रुच्छन्दसीत्यतः आरभ्य कानाम्रेडिते इति सूत्रपर्यन्तं रुप्रकरणम् अस्ति. तत्र एवम् अत्र पदेन अस्माभिः रुप्रकरणं स्वीक्रियते. रुप्रकरणं नाम किम् इत्युक्ते प्रथमसूत्रात् द्वादशसूत्रपर्यन्तम् इति स्वीकर्तुं शक्यते. इदानीं किम् उच्यते अनेन सूत्रेण इत्युक्ते, अत्र रुप्रकरणे रोः पूर्वस्य अनुनासिको वा स्यात्. अस्तु, हा, सर्स्कर्ता इति अस्ति. सर्स्कर्ता इत्यत्र रुप्रकरणं नाम यत्र यत्र रुः इति विधीयते केनापि सूत्रेण, तदा रोः पूर्वस्य अनुनासिकः वा स्यात्. पूर्वस्य अनुनासिकधर्मः तु स्वरस्य भवति. वयं सानुनासिकाः निरनुनासिक इति स्वरविषये एव अकारस्य अष्टादशभेदाः इति वयम् अधीतवन्तः. तत्र अनुनासिकत्वं स्वरस्य गुणं तत्. इदानीं सकारः यः अस्ति, स अनन्तरम् अकारः यः अस्ति, तस्य अनुनासिकः भवति. इदानीं प्रथमं संकर्ता इति आसीत्, संस्कर्ता इति अभवत्, तदनन्तरं किम् अभवत्, अत्रानुनासिकः पूर्वस्य तु वा इति सूत्रेण यदि रुत्वम् अस्ति रोः इत्यत्र षष्टिविभक्तिः, रोः रु इत्यस्य षष्टिविभक्तिः रोः, शम्भुः इत्यस्य शम्भोः इति यथा अस्ति तथा रु इत्यस्य रोः पूर्वस्य अनुनासिकः वा स्यात्. एवं संस्कर्ता इति रूपम् आगतम्, अत्रानुनासिकः पूर्वस्य तु वा इत्यनेन एवम् आगतम्. इदानीं पश्यामः अत्र रूप्रकरणैः तदेव उक्तं. समस्तुति एवं संस्कर्ता इति रूपम् आगतम्. इदानीम् अग्रिमसूत्रं पश्यामः. अनुनासिकात् परो अनुस्वारः इति अग्रिमसूत्रमस्ति. अनुनासिकात् परो अनुस्वारः इत्यत्र पदत्रयम् अस्ति. अनुनासिकात् इत्यत्र पञ्चमी अस्ति, परः अनुस्वारः. इदानीं प्रकरणान्तरं गच्छामः. अनुनासिकात् इत्यत्र पञ्चमी अस्ति. पञ्चमीविभक्तेः कः अर्थः? तस्मादिति उत्तरस्य, तस्मादित्युत्तरस्य इति वयम् अस्माभिः स्वीक्रियते. पञ्चमीविभक्तेः स एव अर्थः इति. परन्तु अत्र स अर्थः न स्वीक्रियते. अस्माभिः सम्यक् स्मर्तव्यम्. अनुनासिकात् परो अनुस्वारः इत्यत्र अनुनासिकात् इति पञ्चम्याः अर्थः न तु तस्मादित्युत्तरस्य इति परिभाषया स्वीक्रियते. तर्हि कः अर्थः इत्युक्ते, एकं कारकप्रकरणे एकम् उदाहरणमस्ति. कारकं युष्माभिः अधीतं, तत्र विभक्तिं जानन्ति इति मन्ये. कारकप्रकरणे एकम् उदाहरणमस्ति, प्रासादात् प्रेक्षते इति उदाहरणम् एकं वाक्यमस्ति. प्रासादात् प्रेक्षते इति, प्रासादात् प्रेक्षते इत्यत्र प्रासादः नाम पेलेस्. प्रासादात् प्रेक्षते तदा कस्मिन् सन्दर्भे प्रासादात् प्रेक्षते इति उदाहरणम् उच्यते इत्युक्ते, प्रासादम् आरुह्य प्रेक्षते इति उच्यते प्रासादातिति पञ्चम्याः तत्र ल्यबन्त अर्थः ल्यबन्त अर्थः प्रासादम् आरुह्य इति स्वीक्रियते प्रासादातिति पञ्चम्याः अर्थः प्रासादम् आरुह्य प्रेक्षते इति स्वीक्रियते तथैव अत्रापि तस्य ल्यब्लोपे पञ्चमी इति कारकप्रकरणे अस्ति प्रासादात् प्रेक्षते प्रासादम् आरुह्य प्रेक्षते इत्यर्थः इति अस्ति तत्र महाबलेश्वरभट्टानां संस्कृतभारत्या प्रकाशितं पुस्तकं कारकम् इति पुस्तकं विद्यते तत्र पञ्चमीकारकम् इत्युक्ते तत्र यदि वयं पश्यामः तत्र प्रासादात् प्रेक्षते इति उदाहरणम् अस्ति उपपदविभक्तिप्रकरणे अस्ति तत्र वयं तत्र प्रासादात् प्रेक्षते इति वाक्यस्य प्रासादम् आरुह्य प्रेक्षते इति पञ्चम्याः अर्थः स्वीक्रियते अत्रापि अनुनासिकात् परो अनुस्वारः इत्यत्र अनुनासिकात् इत्यस्य अनुनासिकं विहाय इति स्वीक्रियते एवम् अनुनासिकं विहाय रोः पूर्वस्मात् परः अनुस्वार आगमः इति सूत्रार्थः तस्य सुलभः तत्र सुलभार्थः एवमस्ति इदानीं यदि अनुनासिक पूर्वस्मिन् सूत्रे अनुनासिकः विहितः संस्कर्ता इत्यत्र सकारात् परस्य अकारस्य अनुनासिकः विहितः यदि अनुनासिकः नागच्छति अनुस्वारः आगमः भवति तत्र विशेषतया अस्माभिः ज्ञातव्यम् अनुनासिक आदेशः अनुस्वार आगमः आगमाः त्रयः इति मया उक्तम् कित् कित् मित् इति अनुस्वारः अपि एतेन सूत्रेण आगमः कदाचित् भवति एवम् अनुनासिक आदेशः अनुस्वार आगमः मित्रव आगमः शत्रुवद् आदेशः इति अस्माभिः पूर्वमेव अधीतम् इदानीं पश्यामः अनुनासिकात् परो अनुस्वारः अनुनासिकं विहाय रोः पूर्वस्मात् परः अनुस्वार आगमः स्यात् यदि अनुनासिकं विहाय यदि अनुनासिकः न भवति तर्हि अनुस्वारः भवति इति उच्यते इदानीं वयं पश्यामः तदनन्तरम् अग्रिमसूत्रं विद्यते खरवसानयोर्विसर्जनीयः खरि अवसाने च पदान्तस्य रेफस्य विसर्गः भवति एवं संस्कर्ता संस्कर्ता इति रूपद्वयम् आगतम् खरवसानयोः विसर्जनीयः इति खरवसानयोः विसर्जनीयः इति पदद्वयं सप्तमी विभक्तिः खरवसानयोः खरि अवसाने च पदान्तस्य रेफस्य विसर्गः भवति तत्तु ज्ञायते खर् इत्यस्य के के वर्णाः समागच्छन्ति इति वयं जानीमः विसर्गादेशः भवति इदानीम् एकनिमिषम् एतत् पश्यामः इदानीं खरवसानयोः विसर्जनीयः इत्यस्य अनुनासिकपक्षे किं भवति रेफस्य विसर्गः खरवसानयोः विसर्जनीयः इत्यनेन सम्पुंस्कानां स्तो वक्तव्यः इति अग्रिमसूत्रं विद्यते तत्र यदि सम्पुंस्कानां सम्पुं तथा कान् शब्दानां विसर्गस्य सकारः भवति सम्पुं पुंस् पुङ्कानां सम्पुङ्कानां सो वक्तव्यः सं पुं तथा कान् शब्दानां विसर्ग यदि विसर्गः सम् इति शब्दस्य विसर्गः यदि अस्ति चेत् पुम् इत्यस्य विसर्गः अस्ति चेत् कान् इति शब्दस्य विसर्गः अस्ति चेत् सकारादेशः भवति इति उच्यते तम विसर्गस्य पुम विसर्गस्य कानित्यस्य विसर्गस्य स्थाने सकारादेशः भवति इति संपुंस्कानां सो वक्तव्यः इति सूत्रं वदति तेन इदानीम् अनुना इदानीं अस्माभिः समरैस् इत्युक्ते आहत्य किम् अभवत् इत्युक्ते संस्कर्ता इत्यस्य किम् अभवत् इति वयं पश्यामश्चेत् प्रथमं संकर्ता इति आसीत् सस्कर्ता इति अभवत् सस्कर्ता इत्यनेन सर्स्कर्ता इति अभवत् अनुनासिकपक्षे अनुनासिकः आगतम् एवं रेफस्य विसर्गः सः संस्कर्ता इति विसर्गस्य सकारः एवं संस्कर्ता इति अभवत् अनुस्वारपक्षे हा सर्स्कर्ता सम् अनुस्वार आगमः तदनन्तरं पुनः करवसानयोर् विसर्जनीयः इत्यनेन विसर्गः तदनन्तरं संपुंस्कानां सो वक्तव्यः इति विसर्गस्य स्थाने सकारः एवं संस्कर्ता इति रूपद्वयम् आगतम् एतावत्पर्यन्तं किमपि सन्देहाः सन्ति वा अवगतं वा सम्यक् एतत् परीक्षायां सर्वत्र संस्कर्ता इति रूपसिद्धिः क्रियते करोतु इति प्रश्नः आगच्छत्येव लघुसिद्धान्तकौमुदी इत्युक्ते संस्कर्तारूपसिद्धिः आगच्छति तत्र कौमुद्यां तु इतोपि अनचिचा इत्यादि सूत्रं स्वीकृत्य इतोपि बहुरूपाणां सिद्धिः क्रियते सिद्धान्तकौमुद्यां लघुकौमुद्यां तु अनुनासिकपक्षः अनुस्वारपक्षः इति पक्षद्वयं स्वीकृतम् एतस्य पुमःकय्यमपरे एतत्तु अग्रिमकक्षायां कुर्मः तत् पुंस्कोट् उदाहरणम् प्रायः अग्रिमकक्षायां व्यञ्जनसन्धिप्रकरणं समापयितुं शक्यते प्रायः अस्तु प्रयत्नं कुर्मः येनाक्षरसमां न यमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः येन धौताग्रः पुंसां विवलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः नत्वा सरस्वतीं देवीं शुद्धां कुन्यां करोम्यहं पाणिनि